अथ एकादशः पाठः। अथ प्रियां जायामिच्छन् सर्वत्र भ्रान्त्वा रामः किष्किन्धां गतः। तत्र सुग्रीवस्य नाम वानरेन्द्रस्य मित्रोऽभवत्। स तु सुग्रीवो वालिना नाम भ्रात्रा राज्यादपनीतः। तद्राज्यं च पुनराप्तुमशक्यम्। वाली हि सुग्रीवाद् बलियान् आसीत्। ततो रामः स्वयं वालिनं शरेणाहन्। अथ वानरराजः स्वराज्यं पुनरगृह्णीत। एवं रामेणानुगृहीत आत्मनो वनं तस्मा उपाहरत्।